एषा रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। प्रधानमन्त्रिणा बालेन्द्र शाहेन नेपाले उत्पादितानां वस्तुनाम् अन्तर्राष्ट्रिय आपण विस्ताराय व्यवसायिनां याचनां सम्बोधयितुं सर्वकारः प्रतिबद्धोऽस्तीति स्पष्टं विहितमस्ति। नेपालस्य प्रमुख निर्यात जन्योद्योग व्यवसायेष् आबद्धानां नेपाल प्लाईवुड उत्पादक संघ इति नाम्नः काष्ठोद्योग संघस्य, नेपाल गलैचा उत्पादक संघ इति संस्थायाः, निर्यातकर्तृ संघस्य, नेपाल पश्मिना उद्योग इति संस्थायाः, नेपाल डक्ची उत्पादक संघ इति संस्थायाश्च प्रतिनिधिभिस्सह प्रधानमन्त्री शाह व्यवसायीभि उत्पादितानि व्यवसाय सम्बद्धानि याचनानि सम्बोधयितुं सम्बद्धान् निकायान् निरदिशत्। तदवसरे नेपाल गलैचा उत्पादक निर्यातकर्तृ संघस्य अध्यक्ष बलराम गुरूङ, नेपाल प्लाईवुड उत्पादक संघ इति संस्थायाः अध्यक्ष होम प्रसाद घिमिरे, नेपाल पश्मिना उद्योग संघ इति संस्थायाः अध्यक्ष धनप्रसाद लामिछाने, नेपाल डगसी उत्पादक संघ इति संस्थायाः अध्यक्ष रेशम बहादुर पोखरेलश्च व्यवसाय सम्बद्धां समस्यां प्रधानमन्त्रिणः समक्षं प्रस्तुतवन्तः। परराष्ट्र मन्त्रालयेन पारपत्र वितरणस्य क्रमे दृष्टा समस्या शीघ्रमेव समाधास्यन्ते इति ज्ञापितम् वर्तते। मन्त्रालयेन ह्य सिंहप्रासादे विहिते नियमित पत्रकार सम्मेलने मन्त्रालयस्य प्रवक्ता लोकबहादुर पौडेल क्षेत्री नवीन प्रविधे प्रयोगे काचुचित् समस्यासु विद्यमानास्वपि शीघ्रमेव तासां समाधानं भविष्यतीति अभाषत। प्रवक्ता क्षेत्री नवीनायाः प्रणाल्याः माध्यमेन साम्प्रतं यावत् 8,262 प्रपत्राणि मुद्रितानि सन्ति। सम्प्रति प्रतिदिनं 1,300 पारपत्राणि मुद्रन्ते, अतो अस्याः समस्यायाः शीघ्रमेव समाधानं भविष्यति इति अवोचत्। पत्रकार सम्मेलने प्रवक्ता क्षेत्री दक्षिण पूर्व एशिया क्षेत्रेष् कम्बोडिया, म्यानमार, लाओस, थाईलैंड देशानां सीमक्षेत्रेष् संचालितेभ्य विभिन्नेभ्य ऑनलाइन इति वैद्युत माध्यमेभ्य वंचितानां षष्ट्युत्तराष्ट्र शत संख्यातानां नेपालीनां सर्वकारेण उद्धार विहितोऽस्तीति असूचयत्। विभिन्नेष् अपराधेष् कम्बोडिया देशस्य कारागारे विद्यमानानां 49 संख्यातानां नेपाल नागरिकाणां स्वदेशं प्रत्यावर्तनाय प्रयासो जायमान स्थिति प्रवक्ता क्षेत्री अज्ञापयत। गृहमन्त्री सुदन गुरूङ निगदति नेपाल भारत सीमक्षेत्रेष् निवसताम् नेपालीनाम् समस्यायाः समाधानाय सर्वकारः प्रयतमानोऽस्ति। संघीयता सबलीकरण राष्ट्रिय सम्बद्धता समितेः उपवेशे पूर्वेद्युः मन्त्री गुरूङ सीमावर्ती क्षेत्रेष् मादक औषधानाम् नयनानयन कार्यस्य तास्कर्यस्य च नियन्त्रणाय गृहमन्त्रालयेन चरणबद्ध रूपेण कार्यम् विधीयमानमस्ति इति अगदत्। मन्त्री गुरूङ सीमक्षेत्रेष् स्थितानाम् सुरक्षाकर्मिणाम् मनोबलं वर्धयितुम् आवश्यकानां स्रोतसां साधनानां च व्यवस्थायै सर्वकारः क्रियाशीलोऽस्तीति प्रावोचत्। उपवेशे सांसदैः सुस्ता क्षेत्रस्य नेपाल नागरिकाणां भूम्यधिकारं सुरक्षा व्यवस्थाञ्च सुनिश्चेतुं कौटनीतिकं प्रयत्नं प्रभावपूर्णं विधातुं ध्यानाकर्षणं विहितमासीत्। सनातन धर्मावलम्बिनां पावनतिथि हरिशयनी एकादशी अद्य भगवतो विष्णोः पूजाराधन पुरस्सरं सभक्ति समायोज्यमानास्ति। पौराणिक कथनस्य अनुसारेण मूर नामक दैत्यस्य आतंकात् देवताः मोचयितुं कदाचित् भगवता विष्णुना महान् संघर्षो विहितः, अथ च असौ युद्धस्य परिश्रमात् विश्रान्तिं प्राप्तुं बदरिकाश्रमस्थितां हैमवती गुहां यत्य शहिता इति घटनायाः स्मृतौ पर्वेदं हरिशयनी एकादशी नाम्ना प्रथितं वर्तते। वैदिक परम्परानुसारेण हरिशयनी एकादशी प्रभृति मासचतुष्टयं यावत् भगवन्तं विष्णुं प्रति भक्ति प्रकटनपूर्वकं धार्मिकानुष्ठानं सम्पाद्यते। हरिशयनी एकादश्यां सुप्तो भगवान् श्रीविष्णुः मासचतुष्टयानन्तरं कार्तिक शुक्लपक्षस्य एकादश्यां दिने जागर्ति, इत्यतः अस्मिन् दिने हरिबोधिनी एकादशी पर्व समायोज्यते। हरिशयनी एकादशीतः हरिबोधिनी एकादशी यावत् चतुर्षु मासेषु चातुर्मासकालः इति नाम्ना धार्मिकानुष्ठानं भवति। अद्यैव दिने एव मानवाय आरोग्यदायिकां महौषधे गुणसम्बलितां च तुलसी विरुद्धं स्वकीय गृह प्राङ्गणेषु संरूप्य अस्याः प्रपूजनस्य प्रचलनं विद्यते। हरिशयनी एकादशी पर्वणः दिने अद्य काष्ठमण्डपस्य बुढा नीलकण्ठ नारायण स्थानेन सहैव उपत्यकायाः चतुर्षु नारायण मन्दिरेषु, देशस्य अन्यत्र विभिन्नेषु जनपदेषु अवस्थितेषु नारायण मन्दिरेषु च भक्तानां महान् सम्मर्दः दृश्यते। संघीय संसद सांसद नैज स्वकीय सचिव नियुक्ते निर्णय विधि विपरीतोस्तीति उल्लिख्य याचिका निवेदन पंजीकारितमस्ति। सर्वोच्च न्यायालय ह्य अधिवक्तृभ्याम डाक्टर प्रेमराज सिलवाल इत्यनेन मणिराम उपाध्याय च पंजीकारिते याचिका निवेदने सांसदानां स्वकीय सचिव नियुक्तेर विषय न केवलं विधि विरूद्ध प्रत्युत संविधानस्य भावनायाश्च प्रतिकूलोऽपि वर्तते इत्युल्लिखितमस्ति। अस्यैव श्रावण मासस्य चतुर्थे दिवसे राजपत्रे प्रकाशितायां सूचनायां 83-2000 विक्रमाब्दस्य संघीय संसद पदाधिकारिणां सदस्यानां पारिश्रमिक सौविध्य सम्बद्धादिनियमस्य 25 प्रकरणं प्रयुज्य सांसदेभ्योऽपि स्वकीय सचिवस्य सौविध्यं प्रदातुम् अनुसूच्यां परिवर्तनं विहितम् आसीत्। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति पूर्वजानां साहसेन त्यागेन बलिदानेन वीरतया च नेपालस्य जनहि गौरवेण शिरः उन्नीयमानमस्ति। राष्ट्रिय विभूतेः भीमसेन थापाभिधस्य 25-2000 जन्मजयन्तीं पुरस्कार वितरण सम्मान कार्यक्रमञ्च सम्बोधयन् राष्ट्रपतिः पौडेलः इतिहासस्य सबल पक्षस्य अनुसरणेन एव वर्तमान समयः न्यायुक्तो भवतीति प्रावोचत्। तदवसरे राष्ट्रपतिः पौडेलः देशस्य राष्ट्रियतायाः कृते पूर्वजैः विहितं योगदानं स्तुत्यमस्तीति अगदत्। उपराष्ट्रपतिना रामसाहेब प्रसाद यादवेन सह नेपालस्य कृते स्विट्जरल्याण्ड देशस्य राजदूतेन डाक्टर डेनियल म्यूली मोन्टेलियोन इत्यनेन लयनचौरवर्तिनी उपराष्ट्रपतेः कार्यालये शिष्टाचार मेलवार्ता विहिता अस्ति। तदवसरे नेपाल स्विट्जरल्याण्ड देशयोः कूटनीतिक सम्बन्धस्य विविधेषु विषयेषु विमृष्टमस्तीति ज्ञापितं वर्तते। बाजुरा जनपदस्य बडीमालिका नगरपालिकायाः नवमौडा क्षेत्रस्य सेलागाड़ स्थाने जलप्लवेन प्रभाविताः 16 परिवाराः सुरक्षित स्थाने स्थानान्तरिताः वर्तन्ते। एते परिवाराः सम्प्रति अविरल वृष्ट्या सहैव दूरापन्नेन भूस्खलनेन विस्थापिताः आसन्। जलप्लवेन मानवीय क्षतिरभावेऽपि महती भौतिक क्षतिर्विहिता अस्ति। इदानीं संकटग्रस्ताः जनाः सुरक्षित स्थानेषु स्थानान्तरिताः वर्तन्ते। इति समाचारः।